अथ षष्ठ स्कंध अथ द्वितीयोध्याय श्री शुक उवाच एवं ते भगवद्दूता यमदूताभिभाषितम् उपधार्याथ तान् राजन् प्रत्याहुर्नय को विदः विष्णुदूता उचुः अहो कष्टम् धर्मदृशाम् अधर्मः स्पृशते सभाम् जत्रा दंडेष्व पापेषु दंडो यैर्ध्रियते वृथा प्रजानां पितरो ये च शास्तारः साधवः समः यदि स्यात्तेषु वैषम्यम् कं यान्ति शरणम् प्रजाः यद्यदाचरति श्रेयानितरस्तत्तदीहते स यत् प्रमाणम् कुरुते लोकस्तदनुवर्तते यस्यांके शिर आधाय लोकः स्वपिति निर्वृतः स्वयं धर्मम धर्मम वा नहीं वेद यथा पशु स कथम न्यर्पितात्मानं कृतमैत्रमचेतनं विश्रम्भणीयो भूतानां सघृण द्रोग्धुमर्हति अयम् हि कृतनिर्वेशो जन्म कोट्यंघसामपि यद्व्याजहार विवशो नाम स्वस्तैनं हरेः एते नैव यघोनस्य कृतम् स्यादघनिष्कृतम् यदा नारायणायेति जगाद चतुरक्षरम् स्तेनः सुरापो मित्रधृग्ब्रह्मः गुरुतल्पगः स्त्रीराजपितृगोहन्ता ये च पातकिनो परे सर्वेषामप्यभवताम् इदमेव सुनिष्कृतम् नाम व्याहरणं विष्णोर्जतस्तद्विषया मतिः न निष्कृतैरुदितैर्ब्रह्मवादिभिः तथा विशुद्ध्यत्तघवान् व्रतादिभिः यथा हरिर्नाम पदैरुदाहृतैः तदुत्तमश्लोकगुणोपलम्भकम् नैकान्तिकम् तद्धिकृतेऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे तत्कर्म निर्हारमभीप्सताम् हरेर्गुणानुवादः खलु सत्त्वभावनः अथैनम् मापनयत कृताशेषाघनिष्कृतम् यदसौ भगवन्नाम म्रियमाणः समग्रहीत् साङ्केत्यम् पारिहास्यम् वा स्तोभम् हेलनमेव वा वैकुंठ नाम ग्रहणम अशेषागहरम विदुः पतितस्खलितो भग्न संदष्टस्तप्त आहत हरिरित्यवसे नाह पुमान्नार्हति यातनाम गुरूणां च लघूनां च गुरूणि च लघूनि च प्रायश्चित्तानि पापानां ज्ञातोक्तानि महर्षिभिः तैस्तान्यघानि पूयन्ते तपो दान जपादिभिः न धर्मजम् तद्हृदयम् तदपि साङ्घ्रिसेवया अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् सङ्कीर्तितम् अघम् पुंसो दहे देधो यथा नलः यथा गदम् वीर्यतमम् उपयुक्तम् यदृच्छया अजानतोऽप्यात्मगुणम् कुर्यान् मन्त्रोऽप्युदाहृतः श्रीशुक उवाच त एवम् सुविनिर्णीय धर्मम् भागवतम् नृप तम् याम्यपाशान् निर्मुच्य विप्रम् मृत्युरमुमुचन् इति प्रत्युदिता याम्या दूता यात्वा जमान्तिके यमराज्ञे यथा सर्वम् आचचक्षुररिन्दम द्विजः पाशाद्विनिर्मुक्तो गतभिः प्रकृतिम् गतः बबन्दे शिरसा विष्णुः किङ्करान् दर्शनोत्सवः तम् विवक्षुमभिप्रेत्य महापुरुष किङ्करः सहसा पश्यतस्तस्य तत्रान्तर्दधिरे नघ अजामिलोप्यथा कर्ण्य दूतानाम् यमकृष्णयोः धर्मम् भागवतम् शुद्धम् त्रैविद्यम् च गुणाश्रयम् भक्तिमान भगवत्याशु महात्म्य श्रवणाधरे अनुतापो महानाशित स्मरतो अशुभमात्मनः। अहो मे परमं कष्टम अभूद विजितात्मनः येन विप्लावितं ब्रह्म वृषल्यं जायतात्मना धिङ्मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् हित्वा बालां सतीं योऽहं सुरापां असतीमगां वृद्धावनाथौ पितरौ नान्यबन्धु तपस्विनौ अहो मयाधुना त्यक्तौ अकृतज्ञेन नीचवत् सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे धर्मघ्ना कामिनो यत्र विन्दन्ति यमयातनः किमिदं स्वप्न आहोस्वित् साक्षात् दृष्टमिहाद्भुतं क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः अथ ते क्व गता सिद्धाश्चत्वारश्चारुदर्शनः व्यमोचयन्नीयमानं बद्ध्वा पाशैरथो भुवः अथापि मे दुर्भगस्य विबुधोत्तमदर्शने भवितव्यं मंगले न जनात्मा मे प्रसीदति अन्यथा म्रियमाणस्य नासुचेर्विसर्लीपतेः वैकुण्ठनाम ग्रहणं जिह्वा वक्तुमिहार्हति क्वचाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः क्वच नारायणेत्येतद् भगवन्नाम मंगलम् सोऽहं तथा जतिष्यामि जतचितेन्द्रियानिलः यथा न भूय आत्मानम् अन्धे तमसि मज्जये विमुच्य तमिमं बन्धम् अविद्या कामकर्मजम् सर्वभूतसुहृच्छान्तो मैत्रः करुणयात्मवान् मोचये ग्रस्तमात्मानम् जोषिन्मय्यात्ममायया विक्रीडितो जयैवाहं क्रीडा मृग इवादमहम् ममाहमिति देहादौ हित्वा मिथ्यार्थधीर्मतिम् धास्ये मनो भगवति शुद्धम् तत्कीर्तनादिभिः। श्रीशुक उवाच इति जातसुनिर्वेद क्षणसङ्गेन साधुषु गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः स तस्मिन् देवसदन आसीनो योगमाश्रितः प्रत्याहृतेन्द्रियग्रामो जुजोजमनयात्मनि ततो गुणेभ्य आत्मानं विजुज्यात्मसमाधिना युजे भगवद्धाम्नि ब्रह्मण्यानुभवात्मनि जर्ह्युपारतधीस्तस्मिन् अद्राक्षित् पुरुषान् पुरः उपलभ्योपलब्धान् प्राग् बबन्दे शिरसा द्विजः हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनां साकं विहाय सा विप्रो महापुरुष किङ्करहि हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः एवं स विप्लावित सर्वधर्म दास्यः पतिः पतितो गर्ह्य कर्मणा निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् नातः परं कर्म निबन्धकृन्तनम् मुमुक्षतां तीर्थपदानुकीर्तनात् न जत् पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततोऽन्यथाम् य एवं परमं गुह्यम् इतिहासमघापहम् शृणुया श्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् न वै स नरकं जाति निक्षितो यमकिङ्करैः यदप्यमङ्गलो मर्त्यो मृत्युलोके महीयते म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् अजामिलोप्यगाद्धाम किं पुनः श्रद्धया गृणन् इति श्रीमद् भागवते महापुराणे परमहंस्याम संहिताम षष्ठ स्कंधे अजामिलोपाख्याने द्वितीयोऽध्यायः।